मध्यावकाशे आलाप।
विनोद, तव खाद्यसम्पुटे किम् अस्ति? दर्शय।
पश्य, रोटिका, आलुभर्जः अस्ति। खादितुम् इच्छसि?
मम पार्श्वे सन्धितम् अस्ति। कः ग्रहीतुम् इच्छति?
अहम् आस्वादयितुम् इच्छामि। देहि अल्पम्।
प्रशान्त, जानासि श्वः प्रभृति पूजावकाशः, अहं ग्रामं गमिष्यामि।
अहमपि दुर्गापूजां द्रष्टुं कटकं गमिष्यामि।
दुर्गापूजायाः अर्थे कटकात् कलिकाता अधिकं प्रसिद्धा। मम मातुलः तत्र व्यवसायं करोति। अहं तत्र गन्तुम् इच्छामि।
तत्र आलिपुर कारागारे श्री अरविन्दः एकं वर्षम् अवसत्। त्वं तत् स्थानं द्रष्टुम् अवश्यं गच्छ।
अहं देहलीं गन्तुम् इच्छामि। मम पितृव्यः तत्र अभिज्ञः चिकित्सकः। अहं तस्य चिकित्सालये स्वास्थ्यपरीक्षां कारयितुम् इच्छामि।
मम ज्येष्ठभ्राता पुदुच्चेरीस्थे श्री अरविन्दाश्रमे वसति। अहं तत्र भ्रमितुं गमिष्यामि। तत्र भ्रमणं कृत्वा अहं मैसूरुनगरं गमिष्यामि। मैसूरुनगरात् मुम्बापुरीं गत्वा अहं गृहं प्रत्यागमिष्यामि।
प्रशान्त, त्वं नीरवं खादसि, किमपि कथयितुं न इच्छसि?
अहं कुत्रापि गन्तुं न इच्छामि। मम संस्कृतशिक्षकः पूजावकाशे संस्कृतसम्भाषणशिबिरम् आयोजयति। अद्यत्वे बहवः जनाः संस्कृते भाषितुम् इच्छन्ति। अहमपि संस्कृते भाषणं शिक्षित्वा निजगौरवं वर्धयिष्यामि।